गीतार्थगन्धोत्कटन् नानाख्यानककेसरं हरिकथा सम्बोधनाबोधितं लोके सज्जनषट्पदैरहरः पेपीयमानं मुदा भूयाद्भारतपङ्कजं कलिमलः प्रध्वंसिनः श्रेयसे गीताशास्त्रमिदं पुण्ययः पठेत् प्रयतः पुमान् विष्णोः पदमवाप्नोति भयशोकादिवर्जितः गीताध्ययनशीलस्य प्राणायामपरस्य च नैव सन्ति हि पापानि पूर्वजन्मकृतानि च मलनिर्मोचनं पुंसाय जलस्नानन्दिने दिने सकृद्गीताम्भसि स्नानं संसारमलनाशनम् गीता सुगीता कर्तव्या किमन्यै शास्त्रविस्तरैः या स्वयं पद्मनाभस्य मुखपद्मादिनिसृता भारतामृत सर्वस्वौ विष्णोर्वक्त्रादिनिसृतं गीता गङ्गोदकं पीत्वा पुनर्जन्म न विद्यते सर्वोपनिषदो गावो दोग्धा गोपाल नन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् भारतामृत सर्वस्व गीताय मथितस्य च सारमुद्धृत्य कृष्णेन अर्जुनस्य मुखे हुतम् सर्वशास्त्रमयी गीता सर्वदेवमयो हरिः सर्वतीर्थमयी गंगा सर्ववेदमयो मनुः गीता गंगा च गायत्री गोविन्दे तिरुदि स्थिते चतुर्गकार संयुक्ते पुनर्जन्म न विद्यते नमोऽस्तु ते व्यास विशाल बुद्धे फुल्लारविन्दायत पत्र नेत्र येन त्वया भारत तैल पूर्ण प्रज्वालितो ज्ञानमयः प्रदीपः एकं शास्त्रं देवकी पुत्र गीत मेको देवो देवकी पुत्र एव एको मन्त्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा।